सर्वेषां स्वागतं. समयः अभवत् वा? अस्तु, सर्वेषां स्वागतं. प्रार्थनया आरम्भं कुर्मः. अस्तु भगिनि, करोतु.
शुक्लाम्बरन्धरं विष्णुं शशिवर्णं चतुर्भुजं प्रसन्नवदनं ध्याये सर्वविघ्नोपशान्तये सरस्वति नमस्तुभ्यं वरदे कामरूपिणि विद्यारम्भं करिष्यामि सिद्धिर्भवतु मे सदा. गुरुर्ब्रह्मा गुरुर्विष्णु गुरुर्देवो महेश्वरः गुरुसाक्षात् परं ब्रह्म तस्मै श्रीगुरुवे नमः.
गुरवे गुरवे
गुरवे नमः. ॐ सहनाभवतु सहनौ भुनक्तु सहवीर्यं करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै. ॐ शान्ति शान्ति शान्तिः.
अस्तु भगिनि, अन्तिमश्लोकः अस्ति. वेदतः अतः स्वराः सन्ति. सो एवमेव वक्तव्यम् इति अस्ति. किं अस्ति, कदा इति वदामः चेत्, यदा वयं पाठन आरम्भसमये सहना भवतु इति पाठन अपि च पठन आरम्भसमये अहं भवत्यै एव वदामि इति न, अहं केवलं कक्ष्यार्थं वदामि. सो अत्र श्लोकः अस्ति शिष्यगुरु मध्ये चर्चा मास्तु इति उक्त्वा एतं श्लोकं वदामः वयम्. ॐ सहना भवतु इत्युक्ते अस्माकं मध्ये, अस्माकं न आवयोः मध्ये समभावः भवतु इति कारणेन एतं श्लोकं वदामः वयम्. ओ सहना भवतु सहनौ भुनक्तु सह वीर्यङ्करवावहै. सो अत्र स अस्ति, अधः रेखा अस्ति, अधः इति अधः आगन्तव्यं, न इति उपरि अस्ति. अतः सहना एवं वक्तव्यम्. अस्तु, तेजस्विनावधीतमस्तु मा विद्विषावहै. ॐ शान्ति शान्ति शान्तिः इति अस्ति. अस्तु, अद्य नूतन श्लोकं पठामः इति आशा. एवमस्ति, कोऽपि जानाति वा एतं श्लोकम्?
अहं न जानामि, किन्तु भवती प्रेषितवती, अहं दृष्टवती.
दृष्टवती. अस्तु, अन्य कोऽपि ज्ञातुं शक्नोति वा एतत्? अस्तु, तर्हि अहं वदामि, प्रयत्नं करोमि, भवन्तः अनुवदन्तु. कृष्णो रक्षतु नः. अस्तु, नः मास्तु, नो. कृष्णो रक्षतु नो जगत्त्रयगुरुः कृष्णं नमस्याम्यहं कृष्णे नामरशत्रवो विनिहताः कृष्णाय तुभ्यं नमः कृष्णादेव समुत्थितं जगदिदं कृष्णस्य दासोऽस्म्यहं कृष्णो तिष्ठति सर्वमेतदखिलं हे कृष्ण रक्षस्व माम्. अस्तु, अहम् एकमेकं वदामि. कृष्णो रक्षतु नो जगत्त्रयगुरुः कृष्णो रक्षतु नो जगत्त्रयगुरुः कृष्णं नमस्याम्यहम्
कृष्णं नमस्याम्यहम्
कृष्णेनामरशत्रवो विनिहताः कृष्णाय तुभ्यं नमः कृष्णादेव समुत्थितं जगदिदम् कृष्णस्य दासोऽस्म्यहम् कृष्णे तिष्ठति सर्वमेततखिलम् हे कृष्ण रक्षस्व माम् पुनरेकवारं मिलित्वा वदामः कृष्णो रक्षतु कृष्णो रक्षतु नो जगत्त्रय गुरुः कृष्णं नमस्याम्यहम् कृष्णेनामरशत्रवो विनिहताः कृष्णाय तुभ्यं नमः कृष्णादेव समुत्थितं जगदिदम् कृष्णस्य दासोऽस्म्यहम् अस्तु अत्र पदच्छेदं कृत्वा एवमस्ति कृष्णः रक्षतु नः जगत्त्रयगुरुः कृष्णः अस्ति जगत्त्रयगुरुः जगत्त्रयगुरुः कृष्णः रक्षतु इत्युक्ते लेट् कृष्ण मे कृष्ण जगत्त्रयगुरुः कृष्णः रक्षतु कं रक्षतु नः अस्मान् बहुवचन कृष्णं नमस्यामि अहं नमस्करोमि कृष्णं नमस्यामि अहं कृष्णेन अमरशत्रवः विनिहताः आसन् इत्युक्ते कृष्णः मारितवान् शत्रवः मारितवान् कृष्णाय तुभ्यं नमः कृष्णाय तुभ्यं नमः सुलभः एव कृष्णात् एव सम् उत्थितं जगत् इदम् जगत् इदं कृष्णात् एव सम् उत्थितं कृष्णात् एव कारणमस्ति कृष्णात् कृष्णात् एव कृष्णेन कृष्णात् इति कृष्णस्य दासः अस्मि अहं दासोऽस्म्यहं दासः अस्मि अहं कृष्णे तिष्ठति सर्वमेतत् अखिलम् अखिलं सर्वं कृष्णे एव तिष्ठति हे कृष्ण रक्षस्व माम् इति प्रश्नः अस्ति वा
आं भगिनि अमरशत्रवः विनिहतः
अत्र शत्रवः अस्ति कीदृश शत्रवः इत्युक्ते अमर शत्रवः इत्युक्ते उदाहरणार्थं अत्र बून्स् स्वीकृतवन्तः खलु. अहं किं किं भगिनि
इम्मोर्टल् एनिमि
इम्मोर्टल् एनिमि आम् आम् इति वरं स्वीकृतवन्तः शत्रवः. तादृशशत्रवः सः मारितवान् इति हननं कृतवान्. अन्य प्रश्नः अस्ति वा
भगिनि? उत्थितम् इत्युक्ते it does it mean that the whole universe came from Krishna?
Yeah, I mean it was lifted. Yeah, lifted up. Uttitam means like it was uttitam, but it came from Krishna. Krishna is the reason. Yes, samya.
Bhagini,
the entire universe likewise
is in Krishna.
Krishna Tishti would be not to stand but to like rely on, right?
Like, you know, when Krishna opened his mouth, right, the whole universe was in him.
In him. Okay.
In him. So it came from him, then it is in him, like he is the whole universe.
Right, right.
Dhanyavad.
He is present everywhere. He is present. Tishtati means remaining, not present.
Yeah, it is in or present. We can take it anyway, Bhagini. Krishne Tishtati, like the world is in Krishna.
Bhagini?
Bhagini.
Krishnam namami aham, Krishnam namasyami aham. What is the...
नमस्करोमि इति अस्ति, नमस्यामि. सो या दट्स् अ गुड् क्वश्चन्. दट् इस् वाट् इस् यूस्ड् इन् दिस् श्लोक. नमस्यामि, नमस्करोमि. वि जनरलि से नमामि, नमस्करोमि, बट् हियर् इट् इस् नमस्यामि. इट्स् द सेम् मीनिङ्ग्. नमस्करोमि. I'll find out more, Bhagini. Namasyami.
Dhanyavada,
Bhagini. Like Vadishyami, Namasyami. Na janam. Agre, aham chintayami shashti vibhakti rupam pashyamaha. अस्तु, अत्र श्रोतृ इति पदस्य उचितषष्टिविभक्तिरूपाणि चिन्वन्तु. श्रोतस्य, श्रोत्रोः, श्रोतॄणाम् अथवा श्रोतुः, श्रोत्रोः, श्रोतॄणाम् अथवा श्रोतारौ, श्रोतृषु.
श्रोतॄणां
सम्यक्, श्रोत्रोः अपि सम्यक्. अत्र श्रोतस्य वा श्रोतुः वा? श्रोतुः. किमर्थम् इत्युक्ते ऋकारान्तपदम् अस्ति चेत् रूपम् एवमेव अस्ति. मातुः, पितुः, धातुः, श्रोतुः इति.
पञ्चमी अपि श्रोतुः.
पञ्चमी अपि श्रोतुः. अस्तु, अतिथि. अतिथि इति अस्ति. एकवारम् सर्वम् अस्ति वा अत्र? अस्तु, आलरेडि मार्क्ड् इट्.
we did half of this Padma last time.
Last time.
We did Prathma Vibhakti, Shashti Vibhakti.
No, this also half we did.
Yeah, right. Yeah, half we did, correct. Up to here we did, hello? And that's why it is marked. Astu.
Krupaya ekam avayatu, that will be samyak.
Samyak va, astu. Astu, punare, astu. Atiti iti asti, uchita rupani, का आरम्भं करोति चम्पा भगिनि करोति वा अत्र लिखितमस्ति एतत् मास्तु एतत् अपि कृतवन्तः वयम् अस्तु इतः आरम्भं कुर्मः शुद्धम् अशुद्धं वा चिन्वन्तु पटुः
पटुः प्रथमविभक्ति उकारान्त पटुः पट्वा लेखनम् अहं न पठितवती सो
एवम् एतत् वाक्यं शुद्धं वा अशुद्धं वा पटोः उत्तराणि सम्यक् अस्ति
सम्यक् एव
सम्यक् एव
नो पटुः हा सम्यक् एव
सम्यक् एव शुद्धं
शुद्धम् ऐ मीन्
अस्तु अग्रे अम्बा सो अत्र पटुः एकनिमेषं भगिनि रामे सप्तमे एतत् अपि सप्तमी एतत् अपि सप्तमी एकनिमेषं भगिनि षष्ठी स्वीकरोमि एकवारं पश्यामः वयम् अत्र उकारान्तपदम् अस्ति चेत् ओः भवति वाः इति कुत्र भवति दीर्घ ऊकारः अस्ति चेत् स्त्रीलिङ्ग दीर्घ ईकारः अस्ति चेत् याः दीर्घ ऊकारः अस्ति चेत् वाः परन्तु स्त्रीलिङ्गे अत्र रूपद्वयम् अस्ति पुल्लिङ्गवत् ओः इति रूपम् अथवा स्त्रीलिङ्गवत् वाः इति एवमेव इकारान्तस्त्रीलिङ्ग अस्ति चेत् पुल्लिङ्गवत् एः मतेः एवमेव स्त्रीलिङ्गवत् याः अपि भवति परन्तु दीर्घ इकारः दीर्घ ऊकारः अस्ति चेत् एकः एव विकल्पः वाः अथवा याः अत्रापि रमा दीर्घ आकारः अतः एकः एव विकल्पः याः इति अस्तु अत्र पटुः इति अस्ति अम्ब पट्वाः इति सम्यक् रूपं वा न वा पट्वाः लेखान् अहं न पठितवती अतः अथवा पटुः एव सम्यक् वा पटुः इति पुल्लिङ्गपदम् अतः पट्वाः इति आगच्छति वा अथवा पटोः एव सम्यक् वा पटोः एव सम्यक् पटोः एव सम्यक् अतः पट्वाः इति अशुद्धम् अस्तु सम्यक् अस्तु अग्रे धन्यवादः लता भगिनी अग्रे
आं भगिनि, मम पतेः नाम अहं विस्मरामि. पतिः इकारान्त पुल्लिङ्ग षष्टिविभक्ति पतेः, सो पतेः नाम अहं विस्मरामि. पतिः पुल्लिङ्ग भगिनि,
पुल्लिङ्ग, परन्तु पतिः इति विशेषपदम्.
ओ पतिः,
पतिः अस्ति चेत् पत्युः एव रूपम्.
ओ पत्युः, सो अशुद्धम्.
अशुद्धं
पते न,
पत्युः अशुद्धं, परन्तु अग्रिमं शुद्धं. पत्युः नाम अहं विस्मरामि.
शुद्धं
शुद्धं, पत्युः इति शुद्धं रूपम् अस्तु.
भगिनि,
हा,
पटुः ह्रस्वः उकारान्तशब्दः खलु?
आम् आम्.
अतः पट्वाः किमर्थम् अशुद्धम्?
हा, सो दीर्घम् अस्ति चेदेव भवति, अपि च स्त्रीलिङ्ग अस्ति चेत् भवति, परन्तु पटुः इति पुल्लिङ्ग, अतः एकः एव विकल्पः.
ओके ओके ओके, अस्तु भगिनि, धन्यवादः.
धन्यवादः. अस्तु अग्रे मालती म्यूट् मध्ये एव भवति. निर्मला भगिनी, सा अपि म्यूट् वा? अस्तु. सन्ध्या भगिनी,
भगिनि काकयोः चञ्चोः वर्णः कृष्णः. काकः अकारान्तपुल्लिङ्गशब्दम्, अतः
चञ्चु एव पश्यतु भगिनि, चञ्चु.
ओके ओके, सो ऐ थाट् दिस् इस् आल्सो षष्ठी नो भगिनि, काकस्य काकयोः,
काकयोः, या दट् इस् आल्सो षष्टि.
देन् चञ्चुः वुड् बि उकारान्त पुल्लिङ्गशब्दः, अतः चञ्चोः एकवचनं, सो सम्यक् अस्ति भगिनि.
चञ्चोः सम्यक् एव, अत्र अत्र पश्यामः. वोः उकारान्त अस्ति चेत् सर्वत्र वोः एव, दीर्घ वा ह्रस्व वा, सो अत्र अतः सम्यक् एव. चञ्चोः वर्णः कृष्णः,
चञ्चु उकारान्त पुल्लिङ्ग,
पुल्लिङ्ग वा स्त्रीलिङ्ग वा, अहं चिन्तयामि स्त्रीलिङ्ग इति. अतः वयं द्रष्टुं शक्नुमः
तत्र द्विवचनम् अस्ति भगिनि.
द्विवचनं, द्विवचनं,
सो द बीक्स् रैट्,
बीक्स् चञ्चु. चञ्चुः बीक् इति अस्ति चेत् स्त्रीलिङ्गपदम्.
किन्तु अत्र दीर्घौ अस्ति वा ह्रस्वौ अस्ति?
दीर्घ अस्ति, अतः द्विवचनं. चञ्चुः चञ्चू चञ्चवः.
दीर्घौ अस्ति वा भगिनि?
दीर्घौ अस्ति भगिनि, चञ्चुः चञ्चू चञ्चवः.
दीर्घौ,
दीर्घौ, सो अतः शुद्धं. चञ्चोः इति शुद्धं, चञ्चोः. अस्तु द्वितीयं,
काकयोः चञ्चोः वर्णः कृष्णः, एकवचनम् अस्ति तत्र,
सो अतः अशुद्धम्.
अशुद्धम्
अशुद्धम्. अस्तु ऊर्मिला भगिनी
तेषां वध्वः वध्वाम् आभरणानि प्रकाशन्ते तेषां वध्वः वध्वः
अत्र वध्वः इति मूलरूपं वधू वधूः
आम् सो सप्तमी बहुवचन षष्ठी बहुवचन
षष्ठी षष्ठी
षष्ठी बहुवचन वधूनां वधूनां भवति
आम् वधूनामेव
सो अत्र तेषाम् अशुद्धमस्ति
प्रथमम् अशुद्धम्
अशुद्धं द्वितीयं शुद्धं
शुद्धं द्वितीयं शुद्धं वध्वां न भवति वधूनाम् इति भवति सर्वे अवगच्छन्ति वा केवलं रूपमेव उषा भगिनी अग्रे
सर्वाः
सर्वासां
सर्वासां शाटिकाः सुन्दराणि सन्ति सर्वासां शाटिकाः
अत्र सर्व इति पदं
सर्वासां षष्ठी
बहुवचनं सर्वनामपदम् शुद्धं शुद्धमेव अस्तु अग्रे
यदि शब्दः उकारान्त इकारान्त ह्रस्व इकारान्त अस्ति चेत् पुल्लिङ्गं वा स्त्रीलिङ्गं वा इति वयं कथं जानीमः
सो बै लुकिङ्ग् अट् द डिक्शनरि भगिनि सो उदाहरणार्थं चञ्चु इति पुल्लिङ्गं वा स्त्रीलिङ्गं वा न जानामि अतः अत्र आगतवती अहं सो बीक् इति अर्थे किम् अस्ति इति बीक् इति अर्थे स्त्रीलिङ्गम्
But it could also mean plant, is it, Bhagini? In which case, it becomes strilingam.
And then it will become pullingam.
Okay.
Deer asti chet pullingam. But vakye kakayoho iti asti chet bikeva.
Okay. That's another way of finding out.
Bhagini, aham na janami katham pashyami chanchu dirghau. I looked at dictionary, online dictionary, I couldn't find it. But which link is this you are
looking? So there is another link, Sansadini. Let me see if I can find it. Sometimes my folder is all messed up. Sansadini iti anya site asti, tatra nama rupani, drashtum shaknumah vayam. सो चञ्चु इति वयं वयं जानीमः इदानीं पुल्लिङ्ग स्त्रीलिङ्ग इति चञ्चु स्त्रीलिङ्गरूपाणि दर्श्यताम् चञ्चुः चञ्चू चञ्चवः
दीर्घ उकारान्त्
द्विवचने अस्ति दीर्घ उकारान्त् किन्तु भवती केन् यु प्लीस् सेण्ड् अस् दि लिङ्क् इन् वाट्सप् ग्रुप्
इट् इस् देयर् भगिनि सो यु गो टु द the WhatsApp group
is there okay dhanyawad bhagini
Yeah. So on the in the description, you will see all this.
So Bhagini, Chanchvoho is the same regardless of whether it is Trilinga or Pullinga and Vivachana.
Correct. 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 Correct.
Bhagini, I'm a little confused here.
Earlier
you said Kakayoho.
Chanchvoho
Varnaha Krishnaha.
अग्रिमवाक्यमस्ति
काकयोः चञ्चुः वर्णः कृष्णः द्वयमपि एकमेव
वा न अत्र द्विवचनमस्ति अत्र एकवचनम् चञ्चोः इति एकवचनं लिखितवती अत्र द्विवचने लिखितवती
Because Kakayoho is the same, right?
Yeah, I'm Bhagini.
Chancho. Oh, I see. Chanchoho, Chanchvoho. Oh, Ekvachanam, Dvivachanam. But how did we come to the Dvivachanam there? Based on what?
Based on Chanchu. Chanchu iti Dvivachana Rupa. Ataha eva.
But there on the top of it,
Chanchu. Ah, Bhagini, Chanchu is Chikalyo.
No, but I'm saying even in the first sentence, it is the same. Kakayoho. Chanchu is the Shabdam, right?
So Atre Chanchvoho is the correct Rupam.
So it is based on that word we are saying it is a.
Astu. अग्रे वीणा बेन् भगिनी
तासां मातरः बहुवचने अस्ति मातॄणां नामानि लिखन्तु शुद्धं भगिनि
शुद्धमेव सो अत्र रूपाणि तथा एव सर्वत्र तथा एव भवति ऋणां दीर्घं मातुः मात्रोः मातॄणां पितुः पित्रोः पितॄणां पुल्लिङ्गं वा स्त्रीलिङ्गं वा समानरूपाणि नपुंसकलिङ्गे अपि समानरूपाणि एव अस्तु अग्रे विष्णुमहोदय
आं भगिनि अपेक्षया सा सम्यक् पठति तस्य अपेक्षया सा सम्यक् पठति
उत्तमम् अत्र तस्याः न भवति सः अपेक्षया न अपेक्षया इति अस्ति चेत् सो अत्र प्रयोगः सो एतावत्पर्यन्तं रूपाणि दृष्टवन्तः कीदृशरूपाणि भवन्ति इति अत्र प्रयोगः कुत्र उपयोगं करणीयम् इति अपेक्षया इति पदमस्ति चेत् षष्टिविभक्ति अत्र अपेक्षया नास्ति सा सम्यक् पठति एव सम्यक् तस्य सम्यक् पठति न तस्य पुत्रः तस्याः पुत्रः इति परन्तु सा सम्यक् पठति एतत् एव सम्यक् प्रश्नः अस्ति चेत् पृच्छन्तु नो चेत् अग्रे गच्छामः चम्पा भगिनि
आं भगिनि
दीर्घवाक्यं
सः वचनम् अपेक्षया एषा वचनं सम्यक् पठति एतस्य वचनस्य अपेक्षया एतस्याः वचनं सम्यक् अस्ति एतस्य वचनस्य अपेक्षया एतस्याः वचनस्य सम्यक् अस्ति
एतस्य वचनस्य अपेक्षया एतस्याः वचनं सम्यक् अस्ति सम्यक् भगिनि सम्यक् सर्वे अवगच्छन्ति वा नो चेत् अस्तु अम्ब अस्तु स्किप् करोमि. लता भगिनी.
आं भगिनि, भवान् बुद्धिः भवतः बुद्ध्याः अपेक्षया अहं मम बुद्धिः बुद्धेः तीक्ष्णा अस्ति. थर्ड् वन्, भवतः बुद्धयाः अपेक्षया मम बुद्धेः दीक्षणा अस्ति.
सो अत्र पश्यतु, अस्ति किम् अस्ति?
बुद्धि दीक्षणा अस्ति.
बुद्धिः एव, बुद्धिः तीक्ष्णा अस्ति. सो अतः एतत् एव सम्यक्. सो अत्र इकारान्तस्त्रीलिङ्ग खलु बुद्धिः, अतः बुद्धेः अपि सम्यक्, बुद्ध्याः अपि सम्यक्.
ओके,
भवतः
बुद्धेः अपेक्षया मम बुद्धिः, बुद्धिः वोण्ट् चेञ्ज्.
बुद्धिः विल् नाट् चेञ्ज्.
ओके, मम बुद्धिः तीक्ष्णा अस्ति.
बुद्धिः इकारान्त ह्रस्व इकारान्त स्त्रीलिङ्ग.
आम् अस्तु, अग्रे मालती भगिनी स्किप् करोति इति चिन्तयामि. निर्मला भगिनी अपि न. अस्तु अस्तु अस्ति, इदानीम् अस्ति.
भवान् बुद्धिः अपेक्षया अहं बुद्धिः तीक्ष्णात् अधिकम् अस्ति, तीक्ष्णता. भवतः बुद्धेः अपेक्षया मम बुद्धिः तीक्ष्णता अधिकम् अस्ति. मिडल् वन्
मम. सो अत्र केवलं तीक्ष्णा, मम बुद्धिः तीक्ष्णा अस्ति. सो हियर् इट् इस् तीक्ष्णता इति अस्ति. कस्य तीक्ष्णता अधिकम् अस्ति? मम बुद्धेः तीक्ष्णता.
भवतः बुद्ध्याः अपेक्षया मम बुद्धेः तीक्ष्णता अधिकम् अस्ति.
इन् दिस् सेण्टेन्स् एतत् एतदेव सम्यक्. मम बुद्धेः तीक्ष्णता अधिकम् अस्ति. किम् अधिकम् अस्ति? तीक्ष्णता अधिकम् अस्ति. कस्य तीक्ष्णता अधिकम् अस्ति? बुद्धेः तीक्ष्णता अधिकम् अस्ति. कस्य बुद्धेः? मम बुद्धेः तीक्ष्णता अधिकम् अस्ति.
सो हियर् आल्सो बुद्ध्यया दीक्ष्णता आल्सो केन् बि रिटन्.
बुद्ध्याः
दीक्ष्णता अधिकम् अस्ति.
बुद्ध्याः तीक्ष्णता अधिकम् अस्ति. बुद्ध्याः बुद्धेः समानम् अस्तु. एतत् सुलभः एव खलु. सो अत्र पुरतः उपरि अग्रे अम्ब वक्तुं शक्नोति वा? कृष्णफलकस्य पुरतः उत्पीठिका अस्ति, शुद्धं वा अशुद्धं वा?
शुद्धम्.
अस्तु, अन्य कोऽपि? मालती भगिनी वक्तुम् इच्छति वा? उत्पीठिकस्य उपरि पुस्तकम् अस्ति. अस्तु अस्तु, क्षम्यताम्. ऐ जस्ट् वाण्टेड् टु मेक् श्योर्. सन्ध्या भगिनी, उत्पीठिकस्य उपरि पुस्तकम् अस्ति.
शुद्धं भगिनी, उत्पीठिकया उपरि पुस्तकम् अस्ति.
बट् रूपं शुद्धं नास्ति खलु?
उत्पीठिकया उपरि पुस्तकम् अस्ति.
उत्पीठिकायाः एव शुद्धम्, उत्पीठिकायाः उपरि पुस्तकम् अस्ति. सो अत्र उत्पीठिकस्य इति अशुद्धम् अशुद्धम् अस्तु. शारदा भगिनी
उत्पीठिकायाः अधः अवकरः अस्ति शुद्धम्
शुद्धम् उत्पीठिकायाः अधः
अवकरः अर्थं किं भगिनि
गार्बेज्
ओके
अवकरः अस्तु. उर्मिला भगिनी
अङ्गनीयः वामतः लेखनी अस्ति अङ्कनीयः अत्र अङ्कनीयः सो अङ्कन्यः
अङ्कन्याः एव सम्यक् अङ्कन्याः अशुद्धम्
अशुद्धम्
अशुद्धम् अङ्कन्याः एव शुद्धम् अस्तु. अग्रे अग्रे का उषा भगिनी
लेखन्याः वर्णः नीलः अशुद्धम्
शुद्धं लेखन्याः सो अत्र अङ्कनीयाः अशुद्धं लेखन्याः शुद्धम् वीणाबेन् भगिनी
आं भगिनि स्यूतस्य अन्तः किम् अस्ति इति पश्यतु शुद्धं भगिनि
शुद्धं शुद्धमेव सो अत्र अधः पुरतः पृष्ठतः उपरि वामतः सर्वत्र षष्टिविभक्तिः भवति अस्तु. विष्णुमहोदय
आं भगिनि विद्यालयस्य बहिः प्रतीक्षां कुरु विद्यालय अकारान्त पुल्लिङ्ग शुद्धं
परन्तु बहिः अस्ति चेत् षष्टि न भवति पञ्चमी भवति अतः तेन कारणेन अशुद्धं वाक्यं वाक्यस्य व्याकरणं शुद्धं परन्तु अर्थे अशुद्धं
विद्यालयात्
विद्यालयात् बहिः प्रतीक्षां कुरु तदेव शुद्धं धन्यवादः महोदय अस्तु. अग्रे चम्पा भगिनी अस्तु अत्र किम् अस्ति विभज्यप्रयोगः आं विभज्यप्रयोगः न विभज्य विभज्यप्रयोगः इति वदामः चेत् साधारणतया कृ धातुः आगच्छति कृ उदाहरणं पठामि ओके पठामि अत्र अस्ति लिखामि लेखनं करोमि एवम् अस्तु. चम्पा भगिनी पाठं पठामः विभज्यप्रयोगः वा विभज्यप्रयोगः नास्ति वा
विभज्यप्रयोगः नास्ति
नास्ति नास्ति अस्तु. इला भगिनी पाठस्य पठनं कुरु सो अत्र विभज्यप्रयोगः अस्ति चेत् कृ धातु साधारणतया आगच्छति सो अत्र एतस्य नाम अस्ति भाववाचकपदम् भाववाचकपदम् अस्ति चेत् ततः पूर्वं षष्टिविभक्तिः भवति एतदेव व्याकरणम् अस्ति षष्टिविभक्ति पठनं कुर्मः रामस्य आगमनं भवति एवम् अस्तु. इला भगिनी पाठस्य पठनं कुर्मः विभज्यप्रयोगः वा विभज्यप्रयोगः नास्ति वा किं कुर्मः चेत् वदतु नास्ति चिन्ता अस्तु. अम्ब पाठस्य पठनं कुर्मः विभज्यप्रयोगः वा न वा
विभज्यप्रयोगः
विभज्यप्रयोगः सम्यक् अस्तु.
यु सेड् पठनम् इस् भाववाचकम् आर् भाववाचकम् पदम्
किं भगिनि भाववाचकपदं भाववाचकं सो अत्र विभक्तिवल्लर्याम् अस्ति खलु एकवारं दर्शयामि
भाववाचकम्
इट् इस् कन्फ्यूसिङ्ग् करेक्ट् कुत्र अस्ति इति एकवारम् अन्वेषणं करोमि एकनिमेषं
अत्र पश्यतु भगिनि, पठनं श्रवणं गमनम् इत्यादीनि पदानि भाववाचकानि इति उच्यन्ते. एतादृशानां भाववाचकपदानां योगे कर्मपदस्य कर्तृपदस्य च षष्टिविभक्तिः भवति. विभक्तिवल्लर्याम् अस्ति. एकवारं तत्र पश्यतु. No, no. If it is a Bhavavachakam, we have to use Shashti.
Shashti. That is the rule. Okay.
That is the rule. Bhavavachakam asti chet. Vatra agamanam. Agamanam is a Bhavavachaka padam.
Anything going in gamanam, patanam?
Patanam, gamanam. They are called lyut pratyaya. Lyut. Lyut pratyaya asti chet Bhavavachaka padam. Then we use Shashti vibhakti. So, atra कर्तृपदस्य षष्टिविभक्ति. पुस्तकस्य अध्ययनं, पुस्तकस्य पठनं कर्मपदस्य षष्टिविभक्ति.
वि लर्न् इन् गीतासोपनम्.
गीतासोपनमपि पठितवन्तः.
इन् द विभक्ति वलरी ही सेड आल्सो कर्तृ कर्मपदस्य च कर्तृपदस्य अपि
कर्तृपदस्य च. Classic example is Ramasya Agamanam. Ramasya Agamanena Aham Santosham Anubhavami. So, atra Bhava Vachaka Padam Binna Binna Vibhakti Rupani Api Svikaroti.
Prushta Sankhya Dvishasti Hi Madhya Asti.
Gita Sopaneva? Astu.
पाठ अष्टादश अभ्यासं करोतु.
ओ एवं वा. अस्तु.
अष्टादश
विभाज्य क्रियापदस्य विभाज्य प्रयोगः.
अस्तु, अत्र अत्र आगच्छन्तु. अस्तु, लता भगिनी, सुमित्रा शालाम् उद्घाटितवती.
शालाम्
उद्घाटन
न विभज्य प्रयोगः
न. सम्यक्, विभज्य प्रयोगः नास्ति. सम्यक् नास्ति. अस्तु, निर्मला भगिनी, सुमित्रा शालायाः उद्घाटनं कृतवती. विभज्य प्रयोगः. सो उद्घाटितवती, उद्घाटनं कृतवती. कृ धातु. सो अत्र कृ धातु पश्यतु, पठामः इति अस्ति. अतः पठनं कुर्मः. वती उद्घाटितवती भूतकालस्त्रीलिङ्ग. अतः कृतवती, उद्घाटनं कृतवती. कस्य उद्घाटनं कृतवती? शालायाः उद्घाटनं कृतवती. तत्र षष्टिविभक्तिरूपं भवति. अस्तु, सन्ध्या भगिनी.
आं भगिनि, आपणिकाः वस्तूनि विक्रेष्यन्ति. तत्र विभज्य प्रयोगं नास्ति.
नास्ति.
आपणिकाः वस्तूनि विक्रयणं करिष्यन्ति. तत्र विभज्य प्रयोगम् अस्ति.
विभज्य प्रयोगः अस्ति, परन्तु अत्र अत्र दोषः अस्ति. विभज्य प्रयोगः एव, परन्तु अत्र वस्तूनां. सो ऐ मेड् अ मिस्टेक् अत्र. आपणिकाः वस्तूनां विक्रयणं करिष्यन्ति एव सम्यक्, खलु? वस्तूनां. ऐ विल् मेक् द करेक्षन्. वस्तूनां विक्रयणं करिष्यन्ति एव सम्यक्. अस्तु, अग्रे अग्रे
भगिनि. मेबि जस्ट् ट्रैङ्ग् टु अण्डर्स्टाण्ड् दिस्. आपणिकाः इस् मार्केट्, रैट्?
No, aapanikaha is a shopkeeper.
Shopkeeper. Oh, okay.
Bhagini?
So the shopkeeper sells the things.
Sells the things is vikreshyanti.
Vikreshyanti, okay. So here sells it is. Okay, so here it is, does the selling of things.
Selling of the things. So, tatra shashti bhavati.
So, it is vastunam mudranam.
Vastunam, so tatra mudrana doshanam. Doshaha asti.
Mudranam. Dhanyavada
bhagini. So, vikrayanam is the bhava vachakam here.
Vikrayanam is bhava vachakam.
So it's always so if you can look for the bhavachika padam, then you can right away say it is, and you see the shashti, then it is ashuddham.
Yes, it should be vastunam vikrayanam. So in general, when you see the lyut pratyaya, like nam patanam krayanam gamanam udghatanam lekanam, then it is bhavavachaka padam. Tatah purvam shashti vibhaktihi bhavati. But this is how we start the bhavavachaka padam, with the kru dhatu. Vikrayati, vikreshyanti, vikrayanam karishyanti. This is the starting. Anantaram karishyanti iti tyaja mahavayam.
Yeah, but this is because we are doing vibhajyan.
Exactly. Yeah. Because you are doing vibhajanam, so we have the kru dhatu also here.
Okay.
Astu, samyak. Astu, Sharada Bhagini, agre. So here, the bhava vachaka padam in different vibhakti. Astu, Sharada Bhagini.
नास्ति
हस्तेन भाववाचकं नास्ति. उर्मिला भगिनी अध्ययनेन.
अस्तु अध्ययनेन भाववाचक
भाववाचकं सम्यक्. भाववाचकम् इति कथं जानीमः इत्युक्ते हस्तेन इति नामपदेन आगच्छति. नामपदम् अस्ति हस्तः. सो अतः अत्र नामपदम् उपयुज्य विभक्तिरूपम् अस्ति. अतः हस्तेन. अत्र अध्ययनं धातुतः अस्ति चेत् भाववाचकम्.
Bhagini, that is tritiya, right, Bhagini?
Tritiya. So, this is to point out, with the bhava vachakam, we can use other vibhakti.
Oh, okay.
Like pustakam, samskritam adhyayanena. So, we cannot say samskrit. Samskritasya adhyayanena. Aham, mama jnanam vardhate. Aham santosham manubhavami adhyayanena.
Okay. Very interesting, Bhagini. Now we've been using only dvitiya, so now you're showing that you can use it with tritiya also.
With tritiya, but we have to use shashti if there is a karma padam or a kartra padam.
Okay.
Can you repeat the sentence, Bhagini,
which you said? Samskritam patami. Samskritasya adhyayanam karomi. That is dvitiya vibhakti, adhyayanam.
Mm-hmm.
So, instead of using adhyayanam, I'll use the one we are very familiar, patanam. Aham samskritam patami. Aham samskritasya patanam karomi.
Here?
And then I say samskritasya patanena. Aham anandam anubhavami. So adhyayanena is the same like patanena. Samskritasya patanena. Aham anandam anubhavami.
Are you saying this is a tritiya vibhakti or the bhava vachaka padam?
Correct. करेक्ट् करेक्ट्
तृतीयविभक्ति वुड् बि अध्ययनेन ओके यु वर् यूसिङ्ग् द वर्ड् जस्ट् अध्ययनम्
इस् सो अध्ययनम् इस् अ ल्युट् प्रत्यय लैक् द नम् अनम् अध्ययनम् इस् अ ल्युट् प्रत्यय उपयुज्य बट् इट् केम् फ्रम् ए क्रियापदम् सो वि काल् दिस् कृदन्त एनिवे सो वि डोण्ट् वाण्ट् आल् दोस् वर्ड् सो अत्र इट् कम्स् फ्रम् ए क्रियापदम् सो दिस् केन् आल्सो बि यूस्ड् वित् अदर् विभक्ति रूपाणि एस् वि विल् सी
रूपाणि मीनिङ्ग् अदर् भाववाचक पदं
नो अदर् विभक्ति रूपाणि ओके सो एस् वि गो अलाङ्ग् यु विल् सी भगिनि अस्तु अग्रे हूस् नेक्स्ट् मा सन्ध्या भगिनी उक्तवती वा अस्तु शारदा भगिनि व्याघ्रस्य
अहम् अपि
उक्तवती ऊर्मिला भगिनी
अहमपि उक्तवती अद्य
उषा भगिनी अपि उक्तवती वा न वा उषा भगिनि अस्तु वदतु व्याघ्रस्य नामपदं वा भाववाचकपदं वा नाम एव नामपदं नामपदम् So I should probably change it to nama padam and bhava is confusing. Astu. Agamanasya Vijay Mahodaya. Now what do you mean to do it? Veena Ben.
Agamanasya Bhava Vachakam.
Bhava Vachakam. So Agamanam Agamanasya Bhava Vachaka Padam. Bhava Vachaka Padam. Vishnu Mahodaya. Samskrite.
संस्कृते इति नामपद
नामपदं संस्कृतं संस्कृते भवान् एव वदतु पठने अथवा विजय् महोदय वक्तुम् इच्छति वा
अहं कार्यानं
कार्याने अस्ति अस्तु महोदय केवलं शृणोतु केवलं
शृणोतु
अस्तु विष्णुमहोदय पठने भाववाचकम्
पठने इति भाववाचकसप्तमी
भाववाचकपदं भाववाचकपदं वयं पूर्वमेव विभक्तिवल्लर्यां पठितवन्तः अतः एव एतत् अस्तु सो अत्र किम् अस्ति इत्युक्ते अन्यप्रयोगः षष्टिविभक्तेः प्रयोगः अनन्तरम् इति पदमस्ति चेत् षष्टिविभक्तिरूपं भवति परन्तु पूर्वं परम् इति पदमस्ति चेत् षष्टि न भवति पञ्चमी एव भवति अस्तु वा अस्तु चम्पा भगिनि
आं भगिनि लेखनस्य अनन्तरं गच्छामि अनन्तरं गच्छामि लेखनस्य अनन्तरं गच्छामि शुद्धं
शुद्धम् अनन्तरम् अस्ति ततः पूर्वं षष्टि अस्ति लेखनस्य अनन्तरम् अहं गच्छामि सम्यक् अस्तु इला भगिनी वक्तुम् इच्छति चेत् अन्म्यूट् करोतु श्रवणात् अनन्तरं हसितवती
भाववाचक
भाववाचकं परन्तु शुद्धं वा अशुद्धं वा श्रवणात् अनन्तरं
श्रवणात् अनन्तरं शुद्धं
सो अत्र अशुद्धं किमर्थम् इत्युक्ते पञ्चमी अस्ति चेत् पूर्वं परमेव भवति अनन्तरम् इति पदम् अस्ति चेत् षष्टिविभक्तिरूपमेव भवति सो अत्र अशुद्धम् अम्ब खादनस्य पूर्वं हस्तप्रक्षालनं करणीयम् खादनस्य पूर्वम्
शुद्धं
सो अत्र अशुद्धम् अशुद्धं सो अत्र पूर्वं परम् अस्ति चेत् पञ्चमी विभक्ति एव भवति पञ्चमी विभक्ति अस्तु सो अत्र अशुद्धम् अग्रे लता भगिनी
आं भगिनी खादनात् परं मुखप्रक्षालनं करणीयं
खादनात् एव शुद्धम् अतः खादनस्य इति अशुद्धम् अशुद्धम् सो अत्र पूर्वं परम् अस्ति चेत् पञ्चमी विभक्ति खादनात् पूर्वं हस्तप्रक्षालनं करणीयं खादनात् परं मुखप्रक्षालनं करणीयम् सो अत्र पञ्चमी एव भवतु षष्टि प्रयोगः अशुद्धम् अस्तु अग्रे निर्मला भगिनी
pidanam
means to close
so it is ashuddham
so atra again pidanam karoti iti vibhajya prayogah so atah shashti vibhakti bhavatu it should be shashti vibhakti so atah ashuddham okay probably all this should be much later parantu I thought vibhakti vallariyam patitavantah iti astu sandhya bhagini
am bhagini mahilayah agamanam bhavati vibhajya prayogam
shuddham mahilayah आगमनं भवति सम्यक् महिलायाः आगमनं भवति अस्तु शारदा भगिनी
वयं मन्दिरे देवस्य दर्शनं प्राप्नुमः अथवा कुर्मः देवस्य दर्शनं शुद्धं भगिनि
शुद्धं देवस्य दर्शनं शुद्धमेव अस्तु अग्रे उर्मिला भगिनी
वयं मन्दिरे देवं दर्शयामः अशुद्धं
शुद्धं सो अत्र देवं दर्शयामः सो अत्र दर्शनं कुर्मः इति विभज्यप्रयोगः अस्ति चेत् षष्टि भवति विभज्यप्रयोगः नास्ति चेत् द्वितीयविभक्तिरूपं भवति देवं दर्शयामः देवं पश्यामः सो अत्र द्वितीया विभक्ति शुद्धं विभज्यप्रयोगः अस्ति चेत् षष्टिविभक्तिः शुद्धम् अस्तु अग्रे उषा भगिनि
भवतः साहाय्यम् आवश्यकं शुद्धम्
शुद्धम् आवश्यकम् इति अस्ति चेत् भवतः षष्टिविभक्तिः भवति भवतः इति भवति अस्तु मीनाबेन् भगिनी
गोविन्दस्य क्षीरम् आवश्यकम् अशुद्धं
शुद्धमेव भगिनि सो अत्र अस्माकं पुस्तके आवश्यकम् इति अस्ति खलु तत्र कुत्र अस्ति आवश्यकम् आवश्यकं मास्तु इति अस्ति खलु तत्र विभज्यप्रयोगः अस्तु अत्र पश्यन्तु क्षम्यताम्
35 भगिनी
35 वा धन्यवादः So it's a very subtle thing. It's not much used, but you know, I think we should know. साधारणतया आवश्यकम् इति वदामः चेत् वि नेवर् यूस् द कस्य आवश्यकं बट् हियर् भवतः साहाय्यम् आवश्यकं भवतः सो इट् इस् षष्ठी विभक्ति मम मास्तु गोविन्दस्य आवश्यकम् एतादृशप्रयोगः
धन्यवादः
धन्यवादः अस्तु अग्रे विष्णुभगिनी महोदय
भवतः कृते गीतापुस्तकम् आवश्यकं वा आवश्यकम् इति विभज्य प्रयोग गीतापुस्तकं
न न तथा न आवश्यकम् इति पदमस्ति चेत् षष्ठी विभक्तिः कस्य आवश्यकं
गीतापुस्तकस्य
न न फार् लैक् भवतः आवश्यकं वा मम आवश्यकं वा
शुद्धं
सो परन्तु अत्र कृते अपि अस्ति अतः अहं चिन्तयामि अशुद्धम् इति
भवतः कृते
भवतः आवश्यकं परन्तु कृते इति अत्र अत्र नास्ति
चतुर्थी रैट् वेन् यु आर् यूसिङ्ग् कृते
या इट् बिकम्स् चतुर्थी
वेन् यु यूस् कृते इट् शुड् बि चतुर्थी विभक्ति
चतुर्थी सो अत्र भवतः आवश्यकम् एवम् एवमेव परन्तु कृते इति नास्ति षष्ठ चतुर्थी विभक्तिः नास्ति सो अतः अशुद्धम् अत्र कृते इति अस्ति अतः नास्ति अन्तिमं मम गीतापुस्तकं न आवश्यकम् शुद्धं वा चम्पा भगिनी मम
मम पुस्तकं न आवश्यकम् सो हियर् इस् द्वितीया विभक्ति अस्ति सो शुद्धं
शुद्धमेव मम आवश्यकम् So we focus on mama avashyakam. Mama avashyakam. Yeah, it is. It is.
I'm getting all
No, the reason I gave a difficult quiz is like this, okay? So
good. We know.
We should know. Yeah, we should know the intricacies. Kimartam itukte गीतासोपानं स्लाश् भाषाप्रवेश परीक्षा अस्ति ओके सो ट्वैस् अ इयर् संस्कृतभारती इस् गिविङ्ग् एक्साम् सो इफ् यु वाण्ट् टु टेक् दि एक्साम् यु नो इट्स् गुड् टु नो सो यु डोण्ट् हेव् टु टेक् दि एक्साम् परन्तु इफ् यु वाण्ट् टु टेक् दि एक्साम् दिस् इस् गुड् प्राक्टिस् दट्स् आल्
रैट् वेरि गुड्
अस्तु शुद्धम् अशुद्धं सूचयतु सर्वेषां छात्राणाम् एषः एव उत्तमः सो दिस् इस् लैक् वेन् वि से पाण्डवानां युधिष्ठिरः ज्येष्ठः सो लैक् आफ् अमङ्ग् द पाण्डवास् ही इस् द बेस्ट् लैक् दट् आफ् आल् द पाण्डवास् आफ् आल् द चिल्ड्रन् ही इस् द बेस्ट् सो अट् दट् टैम् वि यूस् षष्ठी बहुवचनरूपम् Yeah, like comparison, but you know, we're not saying like comparing Govinda, Krishna is better. Govindasya apekshaya Krishna. So we are comparing one-on-one. Here we are saying of all the people, this one is the best, like that. Then we use Shashti Bahuvachana Rupam.
Right.
Sarvesham Chatranam. एषः एव उत्तमः शुद्धं वा अशुद्धं वा
शुद्धं
शुद्धं शुद्धम् अस्तु सर्वेषां शाटिकानाम् एषा एव सुन्दरी अस्ति
सर्वेषां शाटिकानां शुद्धम्
इट् कुड् बि अशुद्धम् आल्सो बिकास् शाटिका इस् अ स्त्रीलिङ्गपदम्
ओ शाटिका शाटिका
शाटिका न सो अत्र कथं भवति शाटिका इति स्त्रीलिङ्गपदं नाम इस् सम्यक् एव्रिवेर् इट् इस् नाम् एव नाम् अथवा न बिकास् शाटिका इस् अ स्त्रीलिङ्गपदं सर्वासां
सर्वेषां
मेक् इट् सर्वासाम् इट् इट् बि शुद्धं
सर्वे सर्वेषां
So this is the last. Okay, good.
Bhagini, the Sarva Shabda is there in all three genders, right?
Bhagini. So this could be a confusing thing. Like this kind of questions, they will not give in the exam.
Okay. So if it had been Sarvesham,
then also it is correct, right, Bhagini? Yeah, if it is Sarvasam Shatikanam, एषा एव सुन्दरी अस्ति सर्वासाम् इस् करेक्ट् सर्वासाम् स्त्रीलिङ्ग सर्वासाम्
सर्वासाम्
मिलित्वा एव कुर्मः तस्याः बुभुक्षा अस्ति इति चिन्तयामि यतः वेगेन खादति
तस्याः षष्टि विभक्ति श्रीलिङ्गे अस्ति बुभुक्षा
अस्तु एकमेकमेव कुर्मः इला भगिनि वदतु
शुद्धं
शुद्धमेव सो अत्र वेन्दिसे बुभुक्षा पिपासा आल् दट् लैक् सन्तोषः आल् दीस् कैण्ड् आफ् एमोशन्स् वि यूस् षष्टि लैक् मम सन्तोषः अस्ति मम बुभुक्षा तस्याः बुभुक्षा सो दिस् इस् करेक्ट्
भगिनी वाट् इस् बुभुक्षा
हङ्गर् हङ्गर्
ओके थेङ्क् यू
तस्याः बुभुक्षा अस्ति सो दिस् इस् सम्यक् अस्ति प्रयोगः ओके सो दिस् इस् हौ इट् इस् यूस्ड् इन् संस्कृतं मम बुभुक्षा अस्ति तस्याः बुभुक्षा तस्य बुभुक्षा देट् इस् वन् नैस् साङ्ग् रैट् एकः शृगालः वनं गच्छति बुभुक्षा तस्य पिपासा सो यु पिक् अप् आल् दीस् प्रयोगः फ्रम् साङ्ग्स् आल्सो बुभुक्षा तस्य पिपासा सो हि हेस् हङ्गर् दिस् इस् हौ वि से हि हेस् हङ्गर् अस्तु अग्रिमं
भगिनि यतः
बिकास्
यतः ततः ओके
यतः अतः
यतः अतः ओके
बोथ् मीन् द सेम्
रैट् नो यतः मीन्स् बिकास् अतः मीन्स् देयरफोर्
सो विल् इट् नाट् बि अतः वेगेन खादति
या
याः बुभुक्षा अस्ति इति चिन्तयामि अतः वेगेन खादामि
न वेगेन खादति सम्यक् अतः आल्सो इस् करेक्ट् सो ऐ केन् से ऐ थिङ्क् शी इस् हङ्ग्री बिकास् शी इस् ईटिङ्ग् फास्ट्
सो शी इस् ईटिङ्ग् फास्ट् ओ ओ ओके
सो इट् केन् या इट् केन् बि ऐ थिङ्क् शी हेस् बुभुक्षा देर् फोर् शी इस् ईटिङ्ग् फास्ट्
ओ ओके ओके यतः इस् बिकास् ओके भगिनि धन्यवादः
अस्तु अम्ब अग्रिम मह्यं बुभुक्षा नास्ति केवलं पिपासा एव अस्तु तस्य आडियो सम्यक् नास्ति चिन्तयामि अस्तु लता भगिनि
आं भगिनि मह्यं बुभुक्षा नास्ति अशुद्धवाक्यं
मम बुभुक्षा नास्ति केवलं पिपासा एव
सम्यक् अशुद्धं बुभुक्षा पिपासा एतादृशपदानि अस्ति चेत् तस्य हि हेस् इति अर्थे एव मह्यम् इति अस्तु अग्रे निर्मला भगिनी सा बुभुक्षिता अस्ति सो ऐ थिङ्क् इट् इस् शुद्धं शुद्धं लैक् ही इस् हङ्ग्रि सो अत्र हङ्ग्रि बुभुक्षिता इस् हङ्ग्रि बुभुक्षा इस् हङ्गर् उदाहरण अन्य अन्य उदाहरणं वदामि सन्तोषः मम सन्तोषः अस्ति लैक् ऐ हेव् हेपिनेस् सन्तोषः इस् हेपिनेस् बुभुक्षा इस् हङ्गर् इति ऐ एम् हेपि अहं सन्तुष्टा अस्मि So this is a difference like that. Sa bubukshita asti. So she is hungry.
So here,
So these are all adjectives. Bubukshita, adjective. You are describing the person. She is happy. Santushta, bubukshita. आनन्दिता बुभुक्षिता लैक् दट् सिमिलर्लि भवान् बुभुक्षिता भविष्यति सम्यक् शुद्धमेव
इज़न्ट् इट् स्त्रीलिङ्गम्
आम् आम् सम्यक् 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 अशुद्धं सम्यक् अशुद्धम् करेक्ट् भगिनि धन्यवादः सो अत्र सा इति स्त्रीलिङ्ग बुभुक्षिता फार् भवान् इट् शुड् बि बुभुक्षितः भविष्यति बुभुक्षितः किमर्थम् इत्युक्ते इट् किमर्थम् इत्युक्ते इट् इस् एन् एड्जेक्टिव् सो विशेषणं विशेष्य विशेषणभावः भविष्यति अत्र अपि विशेषणविशेषभावः हियर् विशेषणविशेषभावः न भवति तस्याः बुभुक्षा मम बुभुक्षा तस्य बुभुक्षा भवतः बुभुक्षा दिस् डज़न्ट् चेञ्ज् हङ्गर् इस् हङ्गर् एव ही हेस् हङ्गर् सो हङ्गर् इट् बिकम्स् लैक् अ वस्तु ही हेस् अ बाटल् तस्याः कूपी अस्ति मम कूपी तस्य कूपी भवतः कूपी सो दिस् डज़न्ट् चेञ्ज् परन्तु अत्र It is a visheshanam. So it will go according to the visheshyam. Atra strilinga bubukshita. Atra pullinga ataha bubukshita eva. So ataha ashuddham.
If you want to make it a shuddha vakyam, we can say bhavati bubukshita.
Bhavati bubukshita bhavishyati. Atava bhavan bubukshita bhavishyati. First, agre. शिक्षकः छात्रस्य पारितोषिकं ददाति
अशुद्धं भगिनि
अशुद्धं हौ केन् यु मेक् इट् शुद्धं
शिक्षकः छात्रायै पारितोषिकं ददाति
छात्रायै अत छात्राय छात्रस्य पुल्लिङ्ग छात्राय छात्राय पारितोषिकं ददाति अथवा छात्रस्य कृते So if you add a krite, we can make it shuddha. Chatrasya krite paritoshikam dadati. Everybody understand? If not, please ask, okay?
Bhagini, krite panchami vibhakti agachati?
No, chaturthi agachati. Krite is an upapada vibhakti, upapadam.
Okay, thank you.
So with the shashti and krite, it will become chaturthi. अस्तु शिक्षकः छात्रायै पारितोषिकं दातुम् इच्छति.
अशुद्धं भगिनि.
शुद्धं वा अशुद्धं वा? किमर्थम् अशुद्धम्?
ह्योर् इच्छति क्रियापदं भगिनि, नाट् दातुं.
आम्,
सो इट् विल् टेक्
पारितोषिकं. सम्यक् एव खलु, पारितोषिकम् इच्छति, पारितोषिकं दातुम् इच्छति.
तुमुन् प्रत्यय.
तुमुन्, आम् तुमुन्. शुद्धम् इति चिन्तयामि, छात्रायै. सो दिस् इस् अ स्त्रीलिङ्ग. अत्र छात्रायै पारितोषिकं दातुम् इच्छति.
इच्छति चतुर्थी विभक्ति आगच्छति.
दातुम् इति, आम् दातुम् इच्छति. दातुम् इच्छति इस् चतुर्थी विभक्ति. छात्रायै दातुम् इच्छति. शिक्षकः छात्रस्य कृते पारितोषिकं ददाति. शुद्धं वा अशुद्धं वा?
शुद्धं.
So the same sentence, one is shuddham and two are ashuddham. Okay. Mama lekana doshaha asti.
Bhagini, one doubt. Normally, when we use dadati, we use chaturthi vibhakti, right? So, it will not be chhatre bhyaha, is it shikshakaha chhatre bhyaha paritoshikam datum michyati?
Samyakeva, chhatre bhyaha is bahuvachanam. Samyakeva bhagini.
Chhatre bhyaha is chaturthi then?
Chhatre bhyaha paritoshikam dadati, samyakeva.
Chhatrasi is shashti, because we are using before krite.
But if you are using with krite, it is equal to chatraya. So this is the same as chatraya.
Chatraya krite?
No. Chatraya paritoshikam dadati, atava chatrasya krite.
Okay.
Asta. मम लेखन दोषः अस्ति.
सोरि भगिनि, ऐ एम् सो सोरि टु इण्टरप्ट्. छात्रायै वुड् बि विच्, ऐ मीन् नॉट
नो नो इट्स् द सेम् थिङ्ग् बट् स्त्रीलिङ्ग, दट्स् ऑल.
ओके ओके ओके.
छात्रायै इस् स्त्रीलिङ्ग, छात्राय इस् पुल्लिङ्ग.
ओके, सो एकवचनं स्त्रीलिङ्ग वुड् बि दि अजम्प्शन् इफ् इट् इस् छात्रायै.
No, chatrebhyah only pullinga. For strilinga, chatrabhyah.
Okay, Bhagini.
Dhanyavada. Mama lekana doshah asti. Suddhamva?
Suddham.
Okay, so anything we can use shashti. I have a pen. Mama lekani asti. I have a boy. Mama putraha asti. I made a mistake is how we say in English. Parantu atra mama lekana doshah asti. Mama doshah. My mistake. Okay, so here we say my mistake. Mama lekana doshah. Mama doshah. It's a bad English when they say my bad, right? That's what it is, my bad. That is bad English, but nowadays everybody uses it, my bad. Aham lekana dosham karomi. See how it is different. Mama lekana doshah asti. Aham lekana dosham karomi. Aham dosham kritavati. I made a mistake. Aham dosham kritavati. Asti. एतस्याः स्वपरीक्षायाः अनन्तरं षष्टिविभक्तेः ज्ञानं वर्धते. कन्फ्यूशन् भवति.
अनन्तरं
पञ्चमी
षष्टिविभक्ति आगच्छति.
षष्टि षष्टि अनन्तरं मीन्स् षष्टि. परम् अण्ड् पूर्वम् इट् बिकम्स्
पञ्चमी.
पञ्चमी अस्तु. सो समापयामः वर्गं शान्तिमन्त्रम् उक्त्वा.
वन् सेकेण्ड् भगिनि, अनन्तरम् इस् दट् अन् अव्ययपदम्? परम् अण्ड् पूर्वम् अव्ययपदं, रैट्?
या, दट्स् वेरि इण्ट्रेस्टिङ्ग्. अनन्तरम् इस् अव्ययं. परं पूर्वं, देर् आर् टु टैप्स् आफ् परं पूर्वं. One is avyayam, param purvam, and the other one is, it can be used as an adjective. Udaharanartham, like the classic example is pandavaha, right? Pandavaha. Yudhishthira prathamaha, yudhishthirat paraha bhimaha, like that. Bhimat purvaha युधिष्ठिरः. देर् इट् इस् नाट् अव्ययम्.
सो विच् इस् अ विभक्ति रूपं वी आर् टेकिङ्ग् देयर् फर् परा?
पञ्चमी. पञ्चमी भीमात्. भीमात् परः.
भीमात् पञ्चमी.
हा, भीमात् भीमात् परः अर्जुनः, भीमात् पूर्वः युधिष्ठिरः.
परः एण्ड् पूर्वः, is there a vibhakti there?
it's not vibhakti, but bhimat and is a vibhakti. Bhimat panchami vibhakti. When you use a word like purvaha paraha or purvam param, we use the panchami vibhakti roopam.
And for anantaram we are using shashti.
Anantaram we use shashti,
but they're all three of them are
avyayapada. Yeah. Okay. Yeah, but as I said, the param and purvam need not be, it can be used without being an avyayam also. But anantaram is always anantaram eva. Mm-hmm. There is no anantaraha or anantara or something.
Oh, I see. Okay. Thank you.
Anya prashna hasti va? Nasti. Astu. ॐ सर्वे भवन्तु सुखिनः, सर्वे सन्तु निरामयाः, सर्वे भद्राणि पश्यन्तु, मा कश्चित् दुःखभाग् भवेत्. ॐ शान्ति शान्ति शान्तिः. हरिः ओं श्रीगुरुभ्यो नमः. हरिः ओम्.
धन्यवादः
धन्यवादः
भगिनी.
धन्यवादः.